सुबन्ताः इत्यस्मिन् अध्याये प्रायः 90 शब्दाः अस्माभिः दृष्टाः। अग्रे पश्यामः। अद्य समाजस्य परिस्थितिः शोचनीया अस्ति। परिस्थितिः इति प्रयोगः समर्थनार्हः एव। अत्र परि इति उपसर्गः, गतिनिवृत्त्यर्थकः ष्ठा धातुः। परिस्थितिः इत्यस्य व्युत्पत्तिः अधुना उच्यते। स्थितिः इत्यत्र स्था ष्ठा इति धातुः, गतिनिवृत्तिः इति अर्थः, क्तिन् प्रत्ययः। तस्मात् परिस्थितिः इति रूपम्। अत्र परि इति उपसर्गः। परि इत्येतस्मिन् उपसर्गे स्थितात् निमित्तात् इकारात् परस्य ष्ठाधातुसम्बद्धस्य सकारस्य षत्वं स्यात् उपसर्गात् चुनोति इति सूत्रेण। उपसर्गात् चुनोति इति पाणिनीयं सूत्रम्। तेन सूत्रेण सकारस्य षकारः भवति, षत्वं भवति। कदा षत्वं भवति? परि इति उपसर्गे पूर्वं परि इति उपसर्गः भवेत्। तस्मिन् उपसर्गे निमित्तं भवेत्। अत्र निमित्तमस्ति इकारः। तस्मात् परस्य सकारस्य षत्वं, तदा परिष्ठितिः इति रूपम्। षत्वम् उपसर्गात् चुनोति इति सूत्रेण तत् नित्यम्। अतः षत्वरहितं रूपं नास्ति, रूपम् असाधु इति केचन अभिप्रयन्ति। परि इत्यस्य स्था क्रेया यदि योगः उच्यते तदा एव षत्वस्य प्रसङ्गः। किन्तु परिगता स्थितिः इति विवरणम् उक्त्वा परि इत्यस्य गमधातुना सम्बन्धः उच्यते तदा षत्वं न। एवं गमधातोः प्रश्लेषः क्रियते। अतः परिस्थितिः इति प्रयोगः समर्थनार्हः एव। एवं गमधातुप्रश्लेषः यः कृतः, नाम धात्वन्तरस्य सम्बन्धकल्पनं, तस्य किमपि प्रमाणम् अस्ति वा इति पृष्टे सति भाष्ये एव तादृशः सम्बन्धः कल्पितः दृश्यते, यथा निःसेचकः अधिसावकीयति इत्यादौ। भाष्यकारेण उक्तमपि अस्ति यं प्रतिक्रियायुक्ताः प्रादयः तं प्रतिकत्युपसर्गसंज्ञकाः भवन्ति इति। हल्सन्धिप्रकरणे अपि सिद्धान्तकौमुद्यां यत्क्रियायुक्ताः प्रादयः तं प्रत्येव गत्युपसर्गसंज्ञकाः इति उक्तम्। अतः परिस्थितिः इति शब्दः लोके बहुधा श्रूयते इत्यतः भाष्योक्तं क्रमम् अवलम्ब्य स्थितस्य गतिः चिन्तितः अस्ति। अतः परिस्थितिः इति प्रयोगः समर्थनार्हः एव। निस्थानात् यानम् इदानीं निर्गतम्। निस्थानात् इति प्रयोगः न दोषाय। निर् उपसर्गपूर्वकात् ष्ठाधातोः अधिकरणे ल्युट्। निर् इत्येतस्मात् निमित्तात् परस्य ष्ठाधातुगतस्य सकारस्य कुतः षत्वं न इति प्रश्नः अत्रापि उद्भवेदेव। अत्र विग्रहः उच्यते निर्गत्य तिष्ठन्ति अत्र यानानि इति। उपसर्गस्य गमधातौ योगः न तु ष्ठाधातौ। अतः उपसर्गयोग अभावात् उपसर्गात् चुनोति इति सूत्रेण न षत्वम्। एवं घम् धातोः प्रश्लेषः षत्वं निवार्यते। भाष्योक्तः क्रमः इत्यतः अस्य अनुसरणं न दोषाय। पूर्वतने उदाहरणेऽपि अस्माभिः एषः क्रमः आश्रितः। किन्तु निस्थानम् इत्यत्र सकारद्वयं लेखनीयम्, सर्गसकारो वा इति न विस्मर्तव्यम्। प्रसिद्धः अस्ति दुर्वासः। अस्माभिः सर्वदा अत्र प्रमादः क्रियते दुर्वासः कोपशीलः मुनिः इति। दुर्वासः इति अपशब्दः। दुर्वासाः इति प्रयोक्तव्यम्। दूर्वासशब्द सकारांत दुर्वासस्ति प्रातिपदिकम् तस्मात् प्रथमाविभक्तेः एकवचने कृते दुर्वासाः इति रूपम् नाम विसर्गात् पूर्वम् आकारः श्रूयते न तु अकारः सः अकारान्तः इति केषाञ्चित् भ्रमः अतः दुर्वासाः इति प्रयोक्तव्यम् दुर्वासमुनिः शकुन्तलायै शापं दत्तवान् अत्रापि दुर्वासमुनिः इति अशुद्धम् दुर्वासो मुनिः इति प्रयोक्तव्यम् दूर्वासशब्दः सकारान्तः इति उक्तम् समासे सकारस्य ऋत्वे हश् परत्वा उत्त्वे गुणे च दुर्वासो मुनिः इति रूपम् अत्र मकारः हश् मुनिः इत्यत्र मकारः हष् इत्यतः उत्त्वं भवति तस्मात् दुर्वासो मुनिः इति रूपम् मेनका नाम अप्सरकन्या भूलोकमागता अप्सरकन्या इति अपशब्दः अप्सरः कन्या इति प्रयोक्तव्यम् अप्सरशब्दः सकारान्तः अप्सराः इति बहुवचनान्तम् किन्तु एकवचनान्तप्रयोगोऽपि शिष्टसम्मतः एव अप्सराः कन्या इति विग्रहे अप्सरशब्दस्य प्रातिपदिकरूपेण अवस्थितौ उपोकपौ च इति सूत्रेण सकारस्य जिह्वाम्बुलीयत्वं विसर्गो वा अतः अप्सरः कन्या अथवा अप्सरः कन्या इति विसर्गसहितम् अथवा जिह्वामूलीयरूपं वक्तव्यम् एवमेव अप्सरो गणः अप्सरो नगरी अप्सरः पुत्री अप्सरः कुलम् इत्यादयः अपि अत्र सर्वत्रापि विसर्गसन्धिप्रक्रिया अस्माभिः अवश्यं स्मर्तव्या प्रकोष्ठे अनुकूलं बहु अस्ति अनुकूलं इति पदम् अत्र परिहरणीयम् आनुकूल्यम् इति प्रयोक्तव्यम् वक्त्रा अत्र भाववाचकः शब्दः प्रयोक्तुम् इष्टः अनुकूलः धर्मिपरः अनुकूलस्य भावः आनुकूल्यम् अतः आनुकूल्यम् इति पदं प्रयोक्तव्यम् यदि अनुकूलशब्दः शब्दप्रयोगेव प्रीतिः तर्हि प्रकोष्ठः अनुकूलः अस्ति इति प्रयुज्यताम् अनुकूलशब्दम् प्रकोष्ठस्य विशेषणं क्रियताम् भारतसदृशे देशे विशाले देशे अभिप्रायभेदः सहजः भारतसदृशे इति प्रयोगः अनुचितः भारतशब्दः प्रयोक्तव्यः भारतं विशालः देशः अत्र अभिप्रायभेदः सहजः इति इच्छति वक्तुम् किन्तु तेन पदप्रयोगः कृतः भारतसदृशे देशे इति भारतसदृशः देशः कश्चित् अन्यः भवति न तु भारतम् वक्ता भारतविषये वक्तुमिच्छति न तु भारतसदृशस्य अन्यस्य कस्यचित् देशस्य अतः विशाले भारतदेशे इति वक्तव्यम् सदृशशब्दप्रयोगात् तु अन्यस्य देशस्य प्रतीतिः भवति न तु भारतस्य तत्तु वक्त्रा न इष्टम् अतः अभिप्राय अनुगुणस्य शब्दप्रयोगस्य विषये अधिकम् अवधानं दातव्यम् अयमपि कश्चन प्रादेशिकभाषाप्रभावतः जायमानः प्रयोगः भवादृशे सति का भीति है अस्माकम इति। भवति सति इति प्रयोगः साधु। धीरं बुद्धिमन्तं वा कञ्चित् उद्दिश्य उक्तं वाक्यम् एतत्। वक्त्रा पुरतः स्थितस्य भवत्पदवाच्यस्य जनस्यैव सत्ता इष्यते, न तु तत्सदृशस्य अन्यस्य। अत्र प्रयोगस्य इदं तात्पर्यं भवान् भवादृशः नाम भवानेव अस्ति भवादृशे सति इति वक्तुमिष्टम्। किन्तु भवादृशः इति कथनेन भवादृशः कश्चित् अन्यः इति प्रतीतिः भवति, न तु भवान् इति। अतः भवति सति इत्येव प्रयोक्तव्यम्। अयमेव प्रयोगः अपेक्षितस्य भावस्य अभिव्यञ्जने समर्थः। अयम् इदं वाक्यमपि प्रादेशिकभाषाप्रभावयुक्तमेव अस्माकं माताश्री सम्यक् बोधयति इति। प्रादेशिकभाषासु अयं प्रयोगः अस्ति एव। माताश्री इति उपशब्दः, मातृश्रीः इति प्रयोक्तव्यम्। विद्यालयस्य बालकस्य वा बालिकायाः उक्तिः एषा। बहुत्र गुरुकुलेषु वा एवं प्रयोगः अस्ति। तत्र माताश्रीशब्देन अध्यापिका निर्दिश्यते। श्रीः इत्येषः न ञन्तः, अतः प्रथम एकवचने कृते सुलोपः नास्ति, सर्गस्य श्रवणं भवत्येव। मातृ श्रीः इति स्थिते मातृशब्दस्य प्रातिपदिकरूपेण स्थितौ मातृश्रीः इति रूपम्। मातृरूपा श्रीः इति मध्यमपदलोपी समासः वक्तव्यः भवेत्। स्थितस्य गतिः चिन्तनीया इति पूर्वम् उक्तमेव। प्रातिपदिकं तु मातृ। एवमेव पितृश्रीः भ्रातृश्रीः इत्यादयः। किन्तु अत्र स्मरणीयः अंशः नाम एषा संस्कृतशैली न। अहं तं पृष्टवान्, तेन कापि प्रतिक्रिया न दर्शिता। अत्र प्रतिक्रिया इति स्थाने प्रतिस्पन्दशब्दः शब्दान्तरं वा प्रयोक्तव्यम्। प्रतिक्रिया इति शब्दः प्रतीकारार्थकः, निवारणोपाययुक्तः वा। क्रियायाः अनन्तरं या अन्या क्रिया भवति तां प्रतिक्रियाशब्दः बोधयितुं नार्हति। प्राचीनैः कुत्रापि तस्मिन् अर्थे प्रयोगः कृतः न दृश्यते, अतः प्रतिस्पन्दः इत्यस्य प्रयोगः वरम् अथवा शब्दान्तरं वा प्रयोक्तव्यम्। भवान् अस्वस्थः, सन्दर्भेऽस्मिन् जागरूकता आवश्यकी। अत्र अवसरेऽस्मिन् इति प्रयोक्तव्यम्। सन्दर्भशब्दः स्थाने, सन्दर्भः नाम ग्रन्थः, योजनम् इत्यादयः अर्थाः सन्ति। सन्दर्भः तु प्रबन्धः स्यात् इति त्रिकाण्डकोशः। श्रन्थनं ग्रन्थनं गुम्फसन्दर्भो रचनानना इति वैजयन्तीकोशः। अवसरादयः अर्थाः अस्य पदस्य न उक्ताः, अतः अवसरः इति प्रयोगः वरम् अथवा शब्दान्तरस्य प्रयोगः भवितुम् अर्हति। अत्रत्या प्रकृतिः रमणीया अस्ति। प्रकृतिः इति पदम् अस्थाने, निसर्गशब्दः शब्दस्य प्रयोगः वरम्। प्रकृतिः इति शब्दस्य बहवः अर्थाः सन्ति। स्वभावः, सृष्टिकारणे भूता, प्रजाः इत्यादयः। वक्त्रा तु दृश्यमाना सृष्टिः वर्ण्यते। प्रकृतिपदं सृष्टिं न बोधयति, अपि तु सृष्टिकारणीभूतं तत्त्वम्। तथा हि प्रयोगः। वेदान्तकौस्तुभे विश्वोत्पत्तिनिमित्तत्वात् प्रकृतिः प्रोच्यते भूतैः इति। प्रकृतिः भवति कारणं, वक्त्रा तु कार्यं वक्तुम् इष्यते। तस्मात् निसर्गः, सृष्टिः इत्यादिषु अन्यतमः शब्दः प्रयोक्तव्यः। एतत् श्रुत्वा सः नितराम् चकितः जातः। चकितः इति पदम् अस्थाने, आश्चर्यान्वितः इति आश्चर्यचकितः इति वा प्रयोक्तव्यम्। चकितः नाम भीतः इति अर्थः। ओषकारैः सर्वैः चकितपदस्य भीतियुक्तादयः अर्थाः वर्णिताः। आश्चर्यार्थः केनापि न उक्तः, अतः आश्चर्यार्थे चकितपदस्य प्रयोगः असाधुः एव भवति। तस्मात् यत्र आश्चर्यमात्रमिष्यते तत्र आश्चर्यान्वितः इति प्रयोगः करणीयः। यत्र आश्चर्यं भवति तत्र भीत्यंशः अपि सम्मिलितः भवति। तादृशे अवसरे आश्चर्यचकितः इति प्रयोगः शक्यः। सः भाषणप्रतियोगितायां भागं वोढुम् इच्छति। प्रतियोगिता इति कथञ्चित् समर्थनीयम् इति भाति। स्पर्धायाम् इति प्रयोगः वरम्। यस्य अत्र न्यायशास्त्रं प्रविष्टमस्ति, यस्य अभावः उच्यते सः तस्य प्रतियोगी। यथा घट अभावः उच्यते चेत् तस्य प्रतियोगी घटः। एषः तर्कशास्त्रीयः पारिभाषिकः शब्दः। स्पर्धायामपि भागग्रहीत्रोः विरोधः परस्परं भवति एव इति कृत्वा प्रतियोगिता नाम स्पर्धा इति व्याख्यानं करणीयम्। किन्तु प्राचीनैः कुत्रापि स्पर्धापर्यायः प्रतियोगिशब्दः न प्रयुक्तः। सर्वैः अनुमते स्पर्धाशब्दे सति। अप्रयुक्तस्य प्रतियोगितापदस्य प्रयोगे नैर्भर्यं भवितव्यं नास्ति। प्रतियोगितापदेव अस्माकं प्रीतिः इति सबलमुच्यते तर्हि भवतु नाम इति वक्तुं शक्यते, विरुद्धसम्बन्धयुक्ततां मनसि निधाय। स्पर्धाशब्दस्य प्रयोगः एव श्रेयसे इति अस्य ग्रन्थकारस्य मतम्। अहं तेन सह वार्तां करोमि। वार्ताशब्दः अत्र अस्थाने, वार्तालापं करोमि, सम्भाषणं करोमि इति वा वक्तव्यम्। करोतिः भाववाचकेन युक्तः क्रियाम् अभिधत्ते, अतः एव तस् अध्ययनं, पाकः, उद्घाटनम् इत्यादिभिः भाववाचकैः शब्दैः सह करोतिं योजयित्वा क्रियां वदामः। वार्ताशब्दः भाववाचकः न, अतः वार्तां करोति ते तस्मात् वाक्यात् वार्ता निर्माति इत्यर्थः इत्यर्थस्य प्रतीतिः न भवति. प्रतीतिः भवितुम् अर्हति. स च अर्थः अत्र न अभिप्रेतः. वार्तां निर्माति इति अर्थः न अभिप्रेतः. वार्तालापं करोति इति अर्थः अभिप्रेतः. अतः वार्तालापशब्दस्य प्रयोगः वरम्. आलापशब्दः भाववाचकः. यदि आलापं करोति इत्यस्मात् सम्भाषते इत्यर्थः न प्रतीयते इति चिन्तनमस्ति. सम्भाषणं करोति इति प्रयोक्तुं शक्यते. अथवा सम्भाषते इति अखण्डक्रियापदं प्रयोक्तुं शक्यते. एतावता उक्तेषु अंशेषु कोऽपि सन्देहः अस्ति चेत् कृपया हस्तम् उत्तोलयन्तु, अन्यथा अग्रे गच्छामः. प्रभाकररावः महोदय.
महोदय श्रूयते?
श्रूयते.
दूर्वासः शब्दस्य बहुवचनरूपं किम्? दूर्वासाः एकवचनं.
सत्यं.
बहुवचनं रूपं किम्?
तत्र तस्य बहुवचनरूपम् अस्ति वा न वा इति मम सन्देहः अस्ति. अतः एकवारं दृष्ट्वा वदामि. यतः तद् एकस्य मुनेः नाम इत्यतः तादृशः मुनिः एकः एव भवति. तस्य पुनः बहुवचनम् इति न भवति. सा संज्ञा मुनेः संज्ञा विशेषसंज्ञा अस्ति. अतः तत्र बहुवचनं पुनः भवति वा इति अहं दृष्ट्वा वदामि.
धन्यवादः.
अन्तर्देशीयपत्रस्य मूल्यम् इदानीं सार्धरूप्यकद्विरूप्यकात्मकम्. देशीयम् इत्यनेन एव इष्टसिद्धिः. अन्तर्देशीयम् इति वा भवतु. विदेशसम्बद्धस्य व्यवहारस्य निमित्तं यत् पत्रमुपयुज्यते तस्य विदेशीयं पत्रम् इति नाम भवितुम् अर्हति. यस्य उपयोगः देशे भवति तद्देशीयं पत्रम्. देशीयम् इत्यस्य अर्थः देशसम्बन्धी इति. देशस्य अन्तः एव तस्य उपयोगः भवति, न तु देशात् बहिः स्थितेषु अन्येषु देशेषु. एवं देशीयम् इत्यस्मादेव अपेक्षितस्य अर्थस्य भानं भवति. तस्मात् तेन सह अन्तर्शब्दस्य योजनं वस्तुतः न आवश्यकम्. किन्तु पत्रालयविभागेन अन्तर्देशीयशब्दः एतावता व्यवहारपथम् आनीतः अस्ति. स्थितस्य गतिः चिन्तनीया इति यथा उच्यते तथा तत् तया चिन्तनशैल्या एव विग्रह उच्यते। देशस्य अन्तः अन्तर्देशः एकदेशी समासः, देशस्य अन्तर्भागः इति अर्थः, अन्तर्देशस्य सम्बन्धी अन्तर्देशीयम् इति तस्य गतिः अत्र चिन्तिता अस्ति। स्वदेशी वस्तूनाम् उपयोगः एव करणीयः सर्वैः। स्वदेशी इति शब्दः स्थाने, स्वदेशीय शब्दः प्रयोक्तव्यः, देशीय इत्यनेनापि इष्टसिद्धिः भवति। स्वस्य देशः स्वदेशः, स्वदेशस्य इदं स्वदेशीयम्, स्वदेशी इत्येतस्मात् शब्दात् स्वदेशवान् इत्यर्थस्य प्रतीतिः भवति। स्वस्वदेशः अस्ति अस्ति इति स्वदेशी, अतः स्वदेशवान् इति अर्थः। स्वदेशवान् इत्यर्थः अत्र नापेक्षितः। यथा सर्वैः ज्ञायते विविधानि वस्तूनि उपलभ्यन्ते बहुराष्ट्रीयसंस्थाभिः निर्मीयमाणानि, देशीयाभिः संस्थाभिः निर्मीयमाणानि। देशीयाभिः संस्थाभिः निर्मितानि सन्ति स्वदेशीयानि। वस्तुतः तु देशीयानि इति कथनादेव अस्मद्देशीयानि इत्यर्थः प्रतीतः भवति, तथापि स्वशब्दस्य त्यागादपि अर्थस्य प्रतीतिः भवेदेव। तथापि स्वदेशस्य योजनात् किं विशेषः इति चिन्त्यते चेत् भवतु, स्वशब्दस्य योजना अधिष्ठास्य भानं तु न भवति। अतः स्वदेशीय इति शब्दः प्रयोक्तव्यः अत्र। अयमपि प्रसिद्धः प्रयोगः सर्वदा अस्माभिः क्रियते एव। बालः स्वमातापितरौ नमस्कृतवान्। मातापितरौ इत्येतावता एव इष्टसिद्धिः भवति, अत्रापि स्वशब्दः परिहर्तुं शक्यः। स्वशब्दः सर्वत्रापि युज्यते अस्माभिः, बहुत्र तस्य योजनं न आवश्यकम्। अस्मिन् वाक्ये मातापितरौ इत्यनेनैव स्वस्य इति अर्थः ज्ञायते। यदा अन्यस्य मातापितरौ निर्देष्टव्यौ तदा अन्य इत्यादिपदानां योजनं करणीयम्। चारुदेवशास्त्रिणः वदन्ति पित्रादयः सम्बन्धिशब्दाः, तत्र सम्बन्धाख्यायकः स्वशब्दः नापेक्षते न च योज्यते इति। अन्यान्यपि वाक्यानि पश्यामः। रामः स्वपितुर्भुवनं जगाम, सः स्वमातरं नमस्कृतवान्, तत्र कश्चन दोषः अस्ति, मातरम् इति भवेत्। बालः स्वबान्धवान् निमन्त्रितवान्, बालः स्वगुरुं नमस्कृतवान्, सः स्वपतिम् उक्तवती, सः स्वपत्नीम् आहूतवान्, सः बालः स्वास्थ्यं दर्शितवान्, सः स्वगृहं गतवान्। अत्र सर्वत्रापि वाक्येषु स्वशब्दः परिहर्तुं शक्यः, परिहरणीयश्च। स्वतस्य सम्बन्धस्य द्योतनाय पुनः स्वशब्दः न प्रयोक्तव्यः। एतादृशेषु स्वशब्दस्य त्यागादेव संस्कृतत्वं सिद्ध्यति। अयमपि प्राचीनभाषा प्रादेशिकभाषा प्रभावेण प्रयुज्यमानं वाक्यम् एतत्। कश्चित् व्यापारी सम्यक् व्यापारं करोति, प्रायः सर्वासु प्रादेशिकभाषासु वाणिज्यम् इत्युक्ते व्यापारः इति पदमस्ति, किन्तु संस्कृते सः अस्थाने व्यापारी इत्यस्य स्थाने वणिक् इति, व्यापार इत्यस्य स्थाने वाणिज्यम् इति प्रयोगः करणीयः। व्यापारः इत्यस्य वाणिज्यम् इति अर्थः नास्ति, क्रियासामान्यम् तस्य व्यापारः इति संस्कृते। वाणिज्यम् अपि कश्चन व्यापारः, किन्तु व्यापारेषु अन्यतमम्, न तु हस्तचलनादयः अपि व्यापाराः एव, क्रियाः एव, किन्तु ते वाणिज्यपदवाच्याः न। प्रादेशिकभाषासु सर्वत्रापि व्यापारपदेन वाणिज्यम् इति अर्थः उच्यते, संस्कृते तु वाणिज्यं क्रयविक्रयसम्बन्धि। व्यापारस्य हस्तपादचलनादिरूपः सर्वः व्यवहारः, अतः क्रयविक्रयारूपे व्यवहारे वाणिज्यपदस्य प्रयोगः, तत्कर्तुः निर्देशाय वणिक्शब्दप्रयोगश्च परम् इति संस्कृतशैली। कश्चन साधुः ग्रामसीमायां निवसति स्म, सन्यासी इति विरागी इति वा प्रयोक्तव्यम्। साधु नाम सभ्यः सत्पुरुषः। साधुः साधु शब्दः सन्यासिनः पर्यायपदं न। यः सन्यासी भवति सः साधुः सज्जनः भवति, किन्तु यः साधुः भवति सः सन्यासी एव भवेत् इति नियमः नास्ति। उत्तमस्वभाववान् सर्वोऽपि साधुः एव। सन्यासी तु काम्यकर्मपरित्यागी सर्वकर्मफलत्यागी च। सः भगवद्गीतायाम् उक्तं, काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः। एवं साधुत्वं व्यापकः धर्मः, सन्यासः व्याप्यः धर्मः। प्रापञ्चिकविषयेषु अनादरवान् विरागी इति उच्यते। प्रकृतवाक्ये सन्यासी इत्यस्य विरागी इति अर्थः, अतः तथा एव प्रयोगः वरम्। हेमचन्द्रकारः हेमचन्द्रः इति कोशकारः अपि वदति साधुर्जैने मनोवाध्विके सज्जनरम्ययोः इति, तस्य दृष्ट्या साधुः इत्यस्य जैनमुनिः इति अर्थः। अन्ये कोशकाराः तु साधुः इत्यस्य सज्जनः इति अर्थः इत्येव वदन्ति। तस्य सांसारिकं जीवनं सुखमयं नास्ति। अत्र सांसारिकम् इति अस्थाने कौटुम्बिकम् इति प्रयोक्तव्यम्। संसारः नाम इह प्रपञ्चः। मातापिता पुत्रादयः कुटुम्बशब्देन निर्दिश्यन्ते। एतस्मिन् वाक्ये सुखाभावः उक्तः कौटुम्बिकजीवने। यः सांसारिकजीवने सुखम् न पश्यति सः विरक्तः सन् सन्यासाश्रमम् अवलम्बेत। यः कौटुम्बिकजीवने सुखम् न पश्यति सः तु खिद्यमानस्सन्नपि सुखप्राप्तये पुनः प्रयतते। अतः अत्र कौटुम्बिकम् जीवनम् इति प्रयोक्तव्यम्। तस्य पत्नीपुत्रादयः परिवारजनाः नगरान्तरम् अगच्छन्। परिवारजनाः इति शब्दप्रयोगः अत्र अनुचितः, कुटुम्बजनाः इति प्रयोक्तव्यम्। संस्कृतभाषायां परिवारः नाम परिजनाः, सेवकादीनां गणः। तस्मात् पत्नीपुत्रादयः न परिवारजनाः अपि तु कुटुम्बजनाः, अतः एव निमन्त्रणपत्रादिषु सकुटुम्बं सपरिवारम् आगन्तव्यम् इति मुद्रते। तस्मात् स्पष्टम् यत् परिवारः कुटुम्बात् अन्यः। ज्येष्ठान् द्रष्टुं रिक्तहस्तेन मा गच्छ। रिक्तहस्तेन इति अस्थाने, रिक्तहस्ततया इति प्रयोक्तव्यम्। रिक्तः हस्तः रिक्तहस्तः, गमनक्रियायां हस्तस्य न करणत्वम्, अतः रिक्तहस्तेन इति तृतीयान्तं पदम् अनन्वितं तिष्ठति। रिक्तः हस्तः यस्य सः इति विग्रहः वक्तुं शक्यते रिक्तहस्तपदस्य, तदा तु रिक्तहस्तः स्यात् कर्ता। कर्तरिप्रयोगः इत्यतः हस्तकर्तुः प्रथमम्, तद्विशेषणमपि प्रथमा एव स्यात् न तु तृतीया। अतः रिक्तहस्तः इति बहुव्रीहि समासोपेदं पदं कर्तुः विशेषणं भवितुमपि नार्हति। क्रियायां तु धर्मपरः शब्दः अन्वेति। रिक्तहस्तस्य भावः रिक्तहस्तता, तस्य तृतीयान्तत्वेन क्रियायाम् अन्वयः, अतः रिक्तहस्ततया इति प्रयोगः एव साधुः इति। रिक्तहस्तेन इति प्रयोक्तव्यमेव, तदा कर्मणि प्रयोगः, ज्येष्ठान् द्रष्टुं रिक्तहस्तेन न गन्तव्यम् इति प्रयोक्तव्यम्। किन्तु अत्र स्मर्तव्यम् इति यदि वक्ता अपमान भवति तदा एव एतत् वाक्यम्। यदि स्त्रिया उच्यते तदा रिक्तहस्तया न गन्तव्यम् इति प्रयोगः, न तु रिक्तहस्तेन इति। तत्र विशेषणविशेष्यभावः अस्माभिः सम्यक् अवगन्तव्यः। एषः कोशः कोशः उत्तमः अस्ति। अत्र मूर्धन्यषकारः तालव्यषकारः उभयतापि अयं साधुः। निष्कर्षाष्टकः कृषधातुः, अधिकरणादौ घञ् कोशः इति रूपं मूर्धन्यषकारः। कोशकारैः तालव्योपेतं रूपमपि दर्श्यते, तस्मात् तालव्योपेतमपि रूपं साधु एव। अमरकोशस्य सुधाव्याख्याने लिख्यते, कोशसंश्लेषणे तालव्यः मूर्धन्याश्च एते अधिकरणे कोशविशदौ च इति शभे इति। नपुंसकलिङ्गः अपि अयं शब्दः, तस्मात् कोशं कोशम् इत्यपि रूपम्। कृषिकः कृषकः क्षेत्रे कृषिं करोति, कृषिकः कृषकः इति रूपद्वयमपि साधु। कृषविलेखने इति धातुः, विलेखनार्थकः कृषधातुः। कुन् प्रत्ययः कृषकः इति रूपम्, किकन् प्रत्यये कृषिकः इति रूपम्। अतः उभयमपि रूपं शुद्धम्। गणपतेः वाहनं मूषकः मूषिकः, अत्रापि उभयता साधुत्वं, मूषकः मूषिकः इति उभयमपि साधु। स्तेयार्थकस्य मूषधातोः नुल् प्रत्यये मूषकः इति रूपं, तस्यैव धातोः किकन् प्रत्यये इति एके मूषिकः इति रूपम्। मूषधातोः अच् प्रत्यये मूष इति रूपं, तस्यापि मूषिकः इत्येव अर्थः। तथैव नालिकेरः नारि उभयतापि उभयमपि साधु। नार्याः वनितायाः केलः इव केलः इति विग्रहे पुषोदरादित्वा नारिकेलः इति रूपं साधु। नरलयोः अभेदात् नालिकेलः इत्यपि साधु। अत्र नारिकेलः वृक्षवाचि, तस्मात् पुंश्चम्। फलवाचित्वे तु नपुंसकता इति पूर्वमेव अस्माभिः ज्ञातमस्ति। अतः नारिकेलः नालिकेलः इति उभयमपि साधु। सैनिकः प्रतिकाराय प्रतीकाराय प्रयतते, प्रतिकारः प्रतीकारः इति उभयमपि साधु। करणार्थकस्य गणिधातोः घञ् प्रत्यये प्रतिकारः इति रूपम्। उपसर्गस्य घञ् मनुष्ये बहुलम् इति सूत्रम्। तेन सूत्रेण दीर्घे प्रतीकारः इत्यपि रूपम्। अतः प्रतिकारः प्रतीकारः इति उभयमपि साधु। हनुमान् हनुमान् रामस्य परमभक्तः, हनुमान् हनुमान् इति उभयतापि साधु। हनु इति उकारान्तं पदम्, हनुधातोः औणादिके उप्रत्यये हनुः इति रूपम्। तस्य धातोः औणादिकः ऊञ् प्रत्ययः अपि भवति, अतः हनूः इति रूपम्। हनुरस्य अस्ति इति हनुमान्, हनूरस्य अस्ति इति हनुमान्। उभयोः अपि प्रयोगः अस्माभिः सर्वत्र दृश्यते। रामायणे मत्करोत्कृष्टवज्रेण हनुस्तस्य ददाक्षता नान्यो हरिषाद्दुर्लभविता हनुमानिधि इति ह्रस्वः। महाभारते च अहं केशरिणः क्षेत्रे वायुना जगदायुना जातः कमलपत्राक्ष हनुमान् नाम वानरः इति महाभारते। अतः हनुमान् हनुमान् इति उभयमपि रूपं साधु। तस्य मध्यमाङ्गुली मध्यमाङ्गुलिः दीर्घा अस्ति। अङ्गुलिः अङ्गुली इति उभयतापि साधु। अङ्गुलिः इत्यत्र उलिच् प्रत्ययः, तस्यैव विकल्पेन ङी प्रत्यये अङ्गुली इति रूपम्। उभयतापि प्रयोगः दृश्यते। उद्वेजत्यङ्गुलि पार्ष्णिभागान् इति कुमारसम्भवे। त्याज्यो दुष्टप्रियोऽप्यासीदङ्गुली अङ्गुलीपोरगक्षता इति रघुवंशे। एवमेव बहु व्यवहारे श्रूयमाणानां बहूनां शब्दानां रूपद्वयं रूपत्रयं वा क्वचित् श्रूयते, तानि रूपाणि यथासम्भवम् उह्यानि। బాలకః ప్రతినిత్యం చలనచిత్రం పశ్యతి. ప్రతిదినం అత్ర కశ్చన దోషః జాతః అస్తి. ప్రతినిత్యం ఇతి అస్థానే ఇతి భవేత్. ప్రతినిత్యం ఇతి అస్థానే ప్రతిదినం ఇతి ప్రయోక్తవ్యం. నిత్య శబ్దః దినపర్యాయః న. తన్నామ నిత్యదినయోః అభేదార్థకతా న. నిత్యపదస్య నియత శాశ్వత ఇత్యాదయః అర్థాః సంతి. నియతం భవం నిత్యం ఇతి భాష్యోక్తిః అవ్యయాత్యపవతి సూత్రే. తస్మాత్ యత్ ప్రతిదినం భవతి తత్ నిత్యశబ్దేన నిర్దిశ్యతే. యత్ ప్రతిదినం న భవతి తదపి నిత్యశబ్దేన నిర్దిశ్యతే. నియతం భవతి ఇతి కృత్వా ఏకాదశి ఉపవాసాదయః అత్ర ఉదాహరణాని. నిత్యకర్మ శబ్దేన నిర్దిశ్యమానాని కానిచన కర్మాణి ప్రతిదినం ప్రవర్తంతే ఇత్యతః నిత్యదినయోః అభేదః ఇతి భ్రమః కేషాంచిత్ అస్తి. అతః ప్రతిదినం ఇతి ప్రయోగః ఏవ ఉచితః. అతః నిత్యోపయోగీని వస్తూని ఇత్యస్య స్థానే దైనందినోపయోగీని వస్తూని ఇతి ప్రయోగః భవితుం అర్హతి. పాండవేషు సహదేవః కనీయః. కనీయః ఇతి అపశబ్దః. కనీయాన్ ఇతి ప్రయోక్తవ్యం. కనీయశబ్దః సకారాంతః. తస్య ప్రథమేకవచనాంతం రూపం కనీయాన్ ఇతి. యువశబ్దాత్ యసున్ ప్రత్యయే ఉగితషాం ఇత్యనేన నుం తతః దీర్ఘః తతః సకారలోపః అతః కనీయశబ్దః. అద్య ప్రశ్నోత్తరీ స్పర్ధ అస్తి. ప్రశ్నోత్తరీ ఇతి అపశబ్దః. ప్రశ్నోత్తరం ఇతి ప్రయోక్తవ్యం. ప్రశ్నాః చ ఉత్తరాణి చ ఏతేషాం సమాహారః ప్రశ్నోత్తరం. సమాహారద్వం చ నపుంసకం భవతి నపుంసకం ఇతి సూత్రేణ. అతః ప్రశ్నోత్తరం ఇతి రూపం. ఇది సమాహారద్వంద్వః నైష్యతే తర్హి ప్రశ్నాః ఉత్తరాణి చ ప్రశ్నోత్తరాణి తేషాం స్పర్ధ ప్రశ్నోత్తర స్పర్ధ తదాపి ఇకారః న ప్రశ్నోత్తర శబ్దే. ద్యుగు సమాసే తు అకారాంతోత్తరపదో ద్యుగో స్త్రియామిష్టః ఇతి వార్తికేన స్త్రీత్వం తథా ద్యుగో ఇతి ఈ పంచవటి ఇత్యాదీని రూపాణి. ప్రశ్నోత్తరం ఇత్యత్ర ద్యుగో న అతః ఈపపి న అతః ప్రశ్నోత్తరీ ఇతి రూపం అసాధు ఏవ. శివరామేణ శిక్షాశాస్త్రి పఠిత. శిక్షాశాస్త్రం పఠితం ఇతి కథనం ఔచిత్య ఆవహతి. యథాస్థితం తు వాక్యం ఆకులితం అస్తి. నహి శిక్షాశాస్త్రి ఇతి శబ్దః స్త్రియామస్తి. అతః పఠిత ఇతి ప్రయోగః అసాధు. శిక్షాశాస్త్రి ఇతి ఉపాధేయ నామ ఉపాధిమతః వ. తచ్చ పదం ఇన్నంతం. అతః శిక్షాశాస్త్రినం ఇతి తియాంతః ప్రయోగః స్యాత్. పఠన విషయః నహి ఉపాధిః పఠ్యతే శాస్త్రం. అతః శిక్షాశాస్త్రం పఠితం ఇతి ప్రయోగః ఔచిత్యం ఆవహతి. ఎతావతా అస్మాభిః బహవః శబ్దాః దృష్టాః. ఏతేషు ఏపి ప్రశ్నాః సంతి చేత్ ఏతం సంకేతం ప్రతి ప్రశ్నాః ప్రేషయితుం శక్యాః. పూర్వతనాః పాఠాః సర్వే అత్ర ద్రష్టుం శక్యాః ఇతి భవంతః జానంతి ఏవ. అద్యతనం పాఠం అత్ర సమాపయామః. అగ్రిమకక్షాయాం పునః అన్యాని సుగంతాన్ని పశ్యామః. ధన్యవాదాః.